सर्वेभ्यो नमस्कारः तारकचिन्तनवर्गे सर्वेषां सुस्वागतम्। धर्मप्रवचनीयाः इति भागः आरब्धः। तत्र अनीयशब्दः कर्तरीभूतार्थे प्रयुक्तः, कर्मप्रवचनीयाः इत्यस्मिन् शब्दे कर्तरीभूतार्थे अनीयप्रत्ययः प्रयुक्तः इति अस्माभिः अधीतम्। तत्र कर्मप्रवचनीयसंज्ञकशब्दस्य कार्यद्वयं वर्तते। एकं तु भूतकाले या क्रिया जाता तस्य परामर्शं करोति, अपि च द्वयोः क्रिययोः मध्ये यः सम्बन्धः अस्ति तदपि बोधयति कर्मप्रवचनीयशब्दः। यथा जपम् अनुप्रावर्षत् इत्यत्र वर्षणं प्रवर्षणं किमर्थं जायते इति चेत्, पूर्वं जपं कृतम् आसीत् तदनु इदानीं प्रावर्षत् इति बोद्धुम् अत्र अनु इति उदाहरणत्वेन उक्तमासीत्। तर्हि इदानीम् अनुर्लक्षणे इति सूत्रं तद्गते वर्गे अस्माभिः दृष्टं, किन्तु एकमेव इतोपि बिन्दुः द्रष्टव्यम् इति मम भाति। तर्हि अत्र सम्पूर्णसूत्रमस्ति अनुर्लक्षणे, अनुः लक्षणे कर्मप्रवचनीयाः इति। तत्र लक्षणे इति सप्तम्याम् अस्ति। तर्हि कः वदति? हेमा भगिनी वदति वा अत्र सप्तमी कस्मिन् अर्थे प्रयुक्तं सूत्रे अनुः लक्षणे कर्मप्रवचनीयाः इति?
तर्हि अत्र लक्षणे इति सप्तमी अस्ति। तर्हि अत्र अनु तु अत्र हेत्वर्थे योजितमस्ति, अपि च तर्हि तत्र लक्षणे द्योते सति
अनुः इति प्रथमाविभक्ति एकवचने।
आम् आम्, परन्तु अर्थः तु हेत्वर्थे तत्र यदा हेत्वर्थे जायते तर्हि तत्र अनु इति अनुः अनु इति योजयामः। हेतुरूपम् अत्र बोधयति इति कृत्वा, अपि च लक्षणे यदस्ति तत्र लक्षणे द्योते सति तर्हि तत्र अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भविष्यति इति। तर्हि तत्र भावेन भावलक्षणं वा सूत्रं सतिसप्तमीरूपेण आयाति इति चिन्तनं महोदय।
अस्तु, अनुः इति प्रथमाविभक्त्याम् अस्ति, लक्षणे इति सप्तमी विभक्त्यामस्ति, कर्मप्रवचनीयाः इति अपि प्रथमाविभक्ति बहुवचने अस्ति। अस्तु, तर्हि यस्य च अत्र भवती एव उदाहरणम् उक्तवती खलु, रामे गते सीता अगच्छत् इति, तादृशं रामे गते सीता अगच्छत् इति चिन्तयामः, नो चेत् सीता गच्छति किमपि। तर्हि तत्र सतिसप्तमी प्रयुक्तम्। एवं सतिसप्तमी अस्ति चेत् तर्हि अनुशब्दः लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञा भवति तस्य। अनुशब्दस्य कर्मप्रवचनीयसंज्ञा भवति कदा? यदा लक्षणे द्योत्ये इति अर्थः इति वाक्यार्थः। तर्हि तत्र लक्षणे द्योत्ये इति तत्र लक्षणे इत्यस्य इतोपि किञ्चित् प्रतिपादनं करोति वा? सतिसप्तमी इति तु सत्यम्। अत्र तुलना करोतु, इदानीं रामे गते सीता अगच्छत् एवं लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञा, कर्मप्रवचनीयसंज्ञा इति अस्ति। लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञा यदा
अत्र
यदा तदा इति वदति वा?
यदा रामः आगतः,
हा अस्तु वदतु,
तदा यदा रामः गतः वा रामः रामे गते सति इति उक्तवान् किल, तर्हि यदा रामः गतः तदा सीता अगच्छत्।
अस्तु, एवम् अत्र लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञा भवति इति वाक्यं वदति वा?
यदा लक्षणस्य द्योतनं जातं तदा अस्माकम् अवगमनम् अभवत् इतोपि।
न, अस्माकम् अवगमनम् इति अत्र अत्र किं, अत्र द्वितीयक्रिया तु कर्मप्रवचनीयसंज्ञार्मभवति इति खलु,
कर्मप्रवचन सत्यं। यदा लक्षणस्य द्योतनं जातं तदा कर्मप्रवचनीयासंज्ञा कर्मप्रवचनीयासंज्ञा प्राप्ता प्राप्ता।
अस्तु, भव्या भगिनी भवती अपि वदति वा यदा तदा इति?
रामस्य गमनम् अनु सीता अगच्छत् इति तथैव एवमपि वक्तुं शक्यते खलु, वर्षाम् अनु सस्यानि वर्धन्ते
तादृशम्।
हा सत्यं, तत्र अनु इति इदानीं तावद् मास्तु, अत्र मम आशयः अस्ति अनुर्लक्षणे इत्यस्मिन् वाक्ये लक्षणे इति सप्तमी प्रयोगः कस्मिन्नर्थे प्रयुक्तम् इति, सति सत्यमी इति भगिन्या उक्तं, तत्तु समीचीनमेव। लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञा भवति इति वाक्यं, तर्हि तस्यैव वाक्यं अत्र यदा तदा इति तादृशरूपेण वदति वा?
यदा लक्षणं द्यौति इति किं द्यौति तदा
धातुः कः?
द्यौति इति किं द्युति इति किं
न जाने, किञ्चित् चिन्तनीयं।
द्युत्
द्वादिगणीयधातुः दीप्तौ
द्युत्
द्युत्
एवं किं
टु ग्लो प्रकाशनं करोति।
द्योतते इति रूपम् आत्मनेपदी अकर्मकधातुः द्युत्।
यदा लक्षणं द्योतते तदा किम् आसीत् महोदयस्य
कर्मप्रवचनसंज्ञा भवति
भवति इति।
यदा लक्षणं द्योतते तदा कर्मप्रवचनीयसंज्ञा भवति अनुशब्दस्य इति सामान्यार्थः। न, किमर्थम् अत्र चिन्तनम् इति चेत् तत्र हेतुरूपे इदानीं सर्वे अत्र करपत्रं पश्यन्तु, सूत्रार्थः हेतुरूपे लक्ष्यलक्षणभावसम्बन्धे द्योत्ये अनुः कर्मप्रवचनीयसंज्ञकः भवति इति लिखितं। तत्र लक्ष्यम् इत्युक्ते किं, लक्षणम् इत्युक्ते किम् इति गते वर्गे अस्माभिः चिन्तितं। तत्र लक्ष्यम् इति किं, तत्र या क्रिया वाक्ये उक्ता अस्ति सा क्रिया, लक्षणम् इति अप्रयुज्यमानक्रिया, वाक्ये या क्रिया न उक्ता किन्तु कर्मप्रवचनीयसंज्ञकेन या क्रिया लक्षिता भवति खलु तदेव इति कृत्वा अत्र
अत्र लक्षणं अनु कर्मप्रवचनीयसंज्ञा इति भवति वक्तुं शक्यते।
लक्षणम् अनु कर्मप्रवचनीयसंज्ञा, लक्षणम् इति तत्र क्रियारूपेण वदतु, लक्षणम् इत्यस्य
लक्ष्यते
इति वा?
द्योतनम् इति भवति किं तथा वक्तव्यं क्रियते इति आवश्यकता नास्ति खलु
न यथा अत्र जपनं जपम् अनु प्रावर्षत् इत्यत्र जपनक्रिया जाता अनेन प्रायः इत्युक्ते अत्र लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इति अस्ति खलु अस्माभिः अवगतं तत्र कर्मप्रवचनीयसंज्ञकपदानां कार्यद्वयमस्ति इति द्वयोः क्रिययोः मध्ये सम्बन्धः वदति इति तु एकम् अन्यत्तु पूर्वक्रिया या जाता तस्य लक्षणं भवति अनु इति शब्दः अपि इत्युक्ते जपम् अनुप्रावर्षत् इत्यस्मिन् वाक्ये जपम् इति एव दत्तमस्ति वस्तुतः जपम् इति कीदृशपदमस्ति क्रियापदमस्ति वा नास्ति खलु न जपः इति कीदृशपदम् इत्युक्ते भावार्थके भावार्थे पदं वा कर्मार्थे पदं वा कर्तर्यर्थे पदं वा जप इति जपति इति जप इति वा विग्रहवाक्यं
जप्यते इति जप
जप्यते इति जप आम् भावार्थे वक्तव्यं चेत् जप्यते इति जप अस्तु तर्हि तत्र अनु इति कर्मप्रवचनीयसंज्ञकपदेन जपनक्रिया उक्ता केवलं जपनक्रिया उक्ता नास्ति किन्तु तयोः मध्ये यः सम्बन्धः इत्युक्ते जप अपि च प्रावर्षणम् अनयोः मध्ये यः सम्बन्धः तदपि उक्ता भवति खलु इति कृत्वा स्वयं लक्षणं भवति पूर्वक्रियां प्रति तदनन्तरं या क्रिया लक्षिता कर्मप्रवचनीयसंज्ञकशब्देन सा क्रिया अपि च तत्र अनन्तरं या क्रिया जायते तयोः मध्ये लक्षणसम्बन्धः अपि वदति इति अर्थः स्वीकरणीयं नो चेत् अनुर्लक्षणे इति सूत्रं न भवितुमर्हति इति भाति मम इत्यतः किञ्चित् चिन्तितम्
लक्ष्यते अनेन इति लक्षणम् इति अस्ति
सत्यं करणार्थे खलु
तर्हि केवलं पर्याप्तं खलु क्रिया द्योते इति न आवश्यकं खलु लक्षणम् अनु कर्मप्रवचने
किन्तु सप्तम्यां स्थापितमस्ति खलु अतः चिन्तयन्नस्मि अस्तु भवती किं कृतवती इदानीं तत्र अनु इति शब्दं स्वीकृत्य वाक्ये प्रयुक्तवती सत्यं लक्षणम् अनु सत्यं लक्षणम् अनु कर्मप्रवचनीयसंज्ञा इति वदामश्चेत् समीचीनमेव इति भाति मम अस्तु तर्हि येषां कर्मप्रवचनीयसंज्ञा भवति तेषां कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रं तदपि अस्माभिः पठितम् अत्रापि युक्तः इति शब्दः योगे इति प्रयुज्य युक्ते इति प्रयुक्तमस्ति तर्हि अर्थतः प्रयोगः अस्ति इति कृत्वा तदनन्तरम् एकादशकर्मप्रवचनीयाः अष्टाध्याय्यां निर्दिष्टाः अनु उप अप परि आङ् प्रति अभि अधि सु अति अपि इति अस्तु अग्रे गमनात् पूर्वम् इतोपि किञ्चित् एकः एव विषयः अत्र यस्य च भावेन भावलक्षणम् इति सूत्रम् आधारीकृत्य एव सति सप्तमी प्रयोगः कुर्मः खलु किन्तु यस्य च भावेन भावलक्षणम् इति सूत्रेण सप्तमी विभक्तेः विधानं कस्य इति भव्या भगिनी भवती एव वदति वा अत्र रामे गते सीता अगच्छत् इति वाक्यं स्वीकरोतु अस्मिन् वाक्ये रामे इत्यस्य सप्तमी अस्ति गते इत्यस्यापि सप्तमी अस्ति किन्तु यस्य च भावेन भावलक्षणम् इति सूत्रेण कस्य सप्तमी विभक्तिः प्राप्तम्
रामे इत्यस्य सप्तमी वा गते इत्यस्य सप्तमी वा इति प्रश्नः किं
सत्यं
भावे इति यस्य च भावे इति अस्ति तर्हि
यस्य च भावेन भावलक्षणम् इति सूत्रं भावेन तृतीयाय
भावेन इति अस्ति इति कृत्वा गते इति गमनकार्ये गमनकार्ये कार्यमेव तत्र निमित्तमस्ति खलु रामे गते इति अस्ति तर्हि गमनकार्यमेव तत्र भाव
इति सामान्यचिन्तनं भवितुम् अर्हति इत्यतः एव मया एषः प्रश्नः कृतः अत्र येन यया क्रियया येन भावेन अन्यां क्रियां बोधयामः तदा येन क्रियया बोधयामः सा क्रियायाः तस्याः क्रियायाः भाववतः इत्युक्ते सा क्रिया यस्मिन्नस्ति तस्य सप्तमी इति एव सूत्रार्थः यस्य च भावेन भावलक्षणं कुर्मः तदा तस्य भाववतः सप्तमी तर्हि रामे इत्यस्य सप्तमी विभक्तिः प्राप्तम् यस्य च भावेन भावलक्षणम् इति सूत्रेण भाववतः गमनक्रिया यस्मिन् अस्ति रामे एव अस्ति खलु तस्य
यस्य इति पदं निर्दिशति राम इति किं रामस्य
यस्य च हा यस्य च सत्यं
तर्हि गमनेन भावलक्षणम् इति
सत्यम् इति कृत्वा भाववतः सप्तमी विभक्तिः भवति तदनन्तरं गते इत्यस्य कथं वा सप्तमी इति चेत् विशेषणमस्ति राम इति शब्दस्य विशेषणमस्ति इति कृत्वा कृदन्तपदं विशेषणत्वेन भवति इति कृत्वा रामे गते सीता अगच्छत् इति वाक्यं तत्र रामे इत्यस्य एव सप्तमी विभक्तिः तर्हि अत्र सूत्रार्थः इत्यत्र हेतुरूपे लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इति पदत्रयं सप्तम्यामस्ति अनुः कर्मप्रवचनीयसंज्ञकः भवति इत्यत्र लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इति एव सतिसप्तमी प्रयोगः तत्र लक्ष्यलक्षणभावसम्बन्धे इत्यस्य पदस्य भाव यस्य च भावेन भावलक्षणम् इत्यनेन सप्तमी विभक्तिः
भावसम्बन्धः भाववतः भवति
सत्यं
महोदय महोदय अत्र प्रथमं गतशब्दस्य सप्तमी भवति तदनन्तरं राम इत्यस्य सप्तमी भवति वा नो चेत् प्रथमं राम इत्यस्य सप्तमी यतोहि तत्र द्वितीयक्रियायां का क्रिया बोधयति का क्रिया क्रियया अस्माकं बोधनं जातं कदा नो चेत् तस्य अवगमनं कदा भविष्यति इत्युक्ते रामस्य गमने सति अत्र किमपि अभवत् इति अस्माकं बोधनं भविष्यति तर्हि प्रथमक्रियायाः बोधनक्रिया भविष्यति गमनम् इति तर्हि गमनक्रियायाः प्रथमं भवति तदनन्तरं कस्य गमने इत्युक्ते रामस्य गमने इति कृत्वा रामे गमने इति मम अवगमनमासीत् तादृशं न वा
नास्ति नास्ति इत्युक्ते यया क्रियया अन्यां क्रियां बोधयामः तस्याः क्रियायाः कर्ता यः अस्ति तस्य सप्तमी भाववतः अत्र वतुप्रत्ययः मतुप्रत्ययः भाववतः सप्तमी विभक्तिः विधीयते इदानीं रामे इति सप्तम्याम् अस्ति इति कृत्वा तत्र गमनक्रिया गतः इति कृदन्तपदमस्ति खलु कृदन्तपद सामान्यतया तत्र विशेषणत्वेन एव भवति विशेषणत्वेन भवति इति कृत्वा हेतुरूपे इति अस्ति तर्हि रामे इति शब्दस्य एव रामशब्दस्य एव सप्तमी विभक्तिः भवति यस्य च भावेन भावलक्षणम् इति सूत्रेण तदनन्तरं रामस्य विशेषणमस्ति गत इति कृदन्तपदम् इति कृत्वा तस्यापि सप्तमी विभक्तिः तत्र तु विशेषणम् इत्यनेन एव सप्तमी विभक्तिः प्राप्यते न तु यस्य च भावेन भावलक्षणम् इति सूत्रेण
अस्तु इतोपि किञ्चित् चिन्तयित्वा यदि किमपि अस्ति आगमिष्यामि तर्हि
अस्तु अस्तु
प्रश्नः अत्र
हा वदतु
ज्ञापः ज्ञापक ज्ञाप्यभावः इति तस्मिन् विषये अपि चिन्तनीयं खलु तत्र
तदेव मम प्रश्नः आसीत् ज्ञापक्रिया इति.
तदस्ति एव, इत्युक्ते गमनक्रिया एव ज्ञापकं भवति. सीतायाः तत्र अपठत् इति स्वीकुर्मः केवलम् अत्र भेदार्थं. पठनक्रियायाः, सीतायाः पठनक्रियायाः ज्ञापकं ज्ञापकक्रिया भवति रामस्य गमनं, तत्तु सत्यं. किन्तु अनेन सूत्रेण, यस्य च भावेन भावलक्षणम् इति सूत्रेण सप्तमी विभक्तिविधानं भवति, किन्तु कस्य, यस्य इति अस्ति खलु स्थानी सः एव.
यस्य इति सूत्रं ज्ञापकक्रियायाः आश्रयः कः इति तस्य सप्तमी.
सत्यं सत्यं, हा, इति कृत्वा गमनक्रियायाः, गमनक्रिया एव पठनक्रियायाः ज्ञापकः अस्ति, किन्तु गमनक्रिया यस्मिन् अस्ति तस्य सप्तमी विभक्तिः.
अत्र अत्र कर्तृत्वे अस्ति, तथा कर्मार्थे अपि भवति वाक्यं, तदा कर्म आश्रयः भवति चेत् तत्र कर्मपदस्य सप्तमी भवति.
सत्यम् इति अस्ति.
अत्रापि एकं वाक्यं स्मारयतु महोदय, कर्मपदस्य
अध्यापकेन प्रश्ने कृते छात्रा उत्तरम् उक्तवती, अथवा अथवा छात्रा उत्तरं वदति इति. अध्यापकेन प्रश्नः प्रश्ने कृते इति, अध्यापकेन प्रश्नः कृतः, यदा महोदयः महोदयेन प्रश्नः पृष्टः तदानीम् उत्तरं भवती वदति इति चिन्तयामः चेत् तत्र अध्यापकेन प्रश्ने पृष्टे भगिनी उत्तरम् उक्तवती, उत्तरं वदति इति, तत्र आश्रयः कर्माश्रयः.
इत्युक्ते अत्र केन उक्तः इत्युक्ते कृदन्तपदेन, क्रियापदेन कः उक्तः भवति इति. गतः इत्यनेन कर्ता उक्तः अस्ति, रामे गते इत्यत्र, किन्तु अत्र तु कर्म, कर्मणि प्रयोगे अस्ति इति कृत्वा सत्यं.
तर्हि कर्मपदं प्रथमं सप्तमी प्राप्नोति, तदनन्तरं विशेषणरूपत्वेन तत्र ज्ञापकक्रिया सप्तमी भवति इति.
सत्यम् एवम् एवम् अत्र अनुर्लक्षणे इति सूत्रार्थः इति भगिनी यद्भगिन्या दत्तं, तत्र हेतुरूपे लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इति अस्ति. अत्र पदत्रयं सप्तम्यामस्ति, तत्र लक्ष्यलक्षणभावसम्बन्धे इत्यस्य सप्तमी विभक्तिः, यस्य च भावेन भावलक्षणम् इति सूत्रेण, द्योत्ये इति तस्य विशेषणमस्ति इति कृत्वा तस्य सप्तविभक्तिः, पुनः हेतुरूपे इत्यस्यापि विशेषणत्वेन एव सप्तविभक्तिः प्राप्यते. अस्तु, तर्हि सर्वं यत् चिन्तनीयमिति मया चिन्तितं तत्सर्वं चिन्तितम्, अग्रे गच्छेम. कर्मप्रवचनीययोगे द्वितीया, कर्मप्रवचनीययोगे द्वितीया, किमर्थमत्र योगे इति भगिनी आगतम्? किं
विधानं द्वितीयाविभक्तिविधानम्?
हा, किन्तु पूर्वस्मिन् पूर्वस्मिन् पुटे कर्मप्रवचनीययुक्ते इति भगिन्या दत्तम्, अत्र तु योगे, सूत्रं योगे इति वा युक्ते इति वा?
युक्ते युक्ते इति
तत्रैव अनुभागे दत्तम् अनेन सूत्रेण कर्मप्रवचनीययुक्ते द्वितीया इति.
अस्तु, तर्हि उपरि अपि युक्ते इति स्थापयामश्चेत् समीचीनं भवति. किमर्थम् इत्युक्ते बहुवारम् अस्माभिः चिन्तितं खलु, योगे अपि च युक्ते अनयोः मध्ये कः भेदः, वैशिष्ट्यं किम् इति. भवतु, कर्मप्रवचनीययुक्ते द्वितीया. तर्हि तृतीयार्थे, अस्तु, कः वदति? लीना भगिनी, वक्तुं शक्यते किम्?
कर्मप्रवचनीययोगे द्वितीया तृतीयार्थे इति सूत्रार्थः, तृतीयार्थे द्योत्ते अनुः कर्मप्रवचनीयसंज्ञको भवति. तृतीयार्थः तु अत्र सहयुक्ते प्रधाने इति साहित्यरूपः. अनेन सूत्रेण कर्मप्रवचनीयसंज्ञायां कर्मप्रवचनीय युक्ते द्वितीया इति द्वितीया जायते यथा नदीम् अनु अवसिता सेना कर्मप्रवचनीयः कर्मप्रवचनीयस्य युक्तार्थः यदा अस्ति तत्र द्वितीया विभक्ति भवति अधुना अनुशब्दस्य अर्थः यदा सः इति अस्ति तदा तस्य कर्मप्रवचनीय भूत्वा द्वितीया भवति क्षम्यतां महोदय सूत्रार्थः तृतीयार्थे द्योत्ते अधुना सः इति तु तृतीयार्थः अस्ति तदा अनु इति शब्दस्य कर्मप्रवचनीय संज्ञा भवति कर्मप्रवचनीयसंज्ञा यदा भवति तदा द्वितीया रूपेण कर्मप्रवचनीय यः शब्दः अस्ति तेन शब्देन यः युक्तः अस्ति तस्य शब्दस्य द्वितीया भवति तृतीयार्थः तु अत्र सहयुक्ते प्रधाने इति साहित्यरूपः सहयुक्ते प्रधाने इति मम अवगमनमस्ति तृतीयविभक्त्यायाः सह इति अस्माभिः योज्यते रामेण सह सीता वनं गच्छति इत्यत्र सह युक्ते अप्रधाने रामेण सह सीता अप्रधाने इत्यत्र तृतीयाविभक्तिकथनस्य अहं न जाने सहयुक्ते अप्रधाने इत्यस्य तृतीयाविभक्ति कथं भवति कस्य भवति इति वदति इति एतत् सूत्रम्
अनेन भवत्याः मैक्रोफोन् किञ्चित् कीप् इट् अ लिटिल् बेक्
ओ ओके ओके
समीचीनं
ओके क्षम्यताम्
इदानीं सम्यक् अस्ति
अस्तु सहयुक्ते अप्रधाने इति साहित्यरूपः सहयुक्ते अप्रधाने एतत्तु तृतीया कथं भवति सः पदं यदा अस्ति तदा तृतीया कथं भवति एतत् एतत् वदति एष एतत् सूत्रम् इति मन्ये अनेन सूत्रेण कर्मप्रवचनीयसंज्ञायां कर्मप्रवचनीययुक्ते द्वितीया इति द्वितीया जायते अनेन सूत्रेण नाम कर्मप्रवचनीययुक्ते द्वितीया अनेन सूत्रेण यदा कर्मप्रवचनीयसंज्ञा भवति तदा कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण द्वितीया विभक्ति अनेन सूत्रेण भवति इति उक्तमस्ति अत्र उदाहरणरूपेण नदीम् अनु अवसिता सेना अधुना अनु इत्यस्य अर्थः सः इति अस्ति नद्या सह अवसिता सेना एवं वाक्यं भवति यदा सः पदः तत्र युक्तः अस्ति परन्तु अनु इत्यस्य अर्थः अधुना सः अस्ति अत्र कर्मप्रवचनीया अस्ति अतः नदी इति शब्दस्य द्वितीया विभक्ति आगता
सत्यम् उत्तमं तर्हि नद्या सह अवसिता सेना इति भवेत् यदि सः इति पदं प्रयोगं कुर्मः तत्र नद्या इत्यस्य तृतीया विभक्तिः केन सूत्रेण प्राप्तम् इति चेत् सहयुक्ते प्रदाने इति सूत्रेण एव प्राप्तम् किन्तु तृतीयार्थे इत्युक्ते अत्र सः इति पदेन वाक्यं रचयामश्चेत् तत्र तृतीयार्थः भवति तृतीयार्थः इत्युक्ते सः अर्थः भवति खलु तदेव साहित्यरूपः इति सः अर्थः इत्येव तत्र साहित्यरूपः इति उक्तं तस्मिन् अर्थे यदा अनु इति शब्दस्य सः अर्थे अनुशब्दस्य प्रयोगे अत्र यः शब्दः अनुशब्देन युक्तः अस्ति अर्थतः युक्तः अस्ति तस्य द्वितीयविभक्तिः भवति इति सूत्रं वदति अस्तु
सहितः भावः इति वा
हा
सहितः भावः इति वा
साहित्य
अपि च महोदय तत्र अप्रधाने इति किञ्चित् स्मारयति वा
इत्युक्ते
अहं प्रयत्नं करोमि वा महोदय
प्रयत्नं करोतु
सहयुक्ते अप्रधाने अधुना रामेण सह सीता वनं गच्छति अधुना अप्रधानरूपेण रामः तत्र अस्ति तस्य तृतीया विभक्ति भवति इति वा महोदय
अत्र काशिकायाम् एकम् उदाहरणं दत्तमस्ति अप्रधाने इति किम् एतादृशप्रश्नाः भवन्ति चेत् काशिका महान् उपयोगाय भवति इत्युक्ते
अस्तु तृतीयार्थे इति सूत्रमस्ति प्रथमजासि चतुर्थपादे पञ्चाशीतिसूत्रं कर्तृकलनयो तृतीया इति आरकविभक्तिः अस्ति तस्य संख्या अस्ति द्वितीयजासे तृतीयपादम् अष्टादशसूत्रम् तदनन्तरं सहयुक्ते प्रधाने इति सूत्रम् आगच्छति तस्य सङ्ख्या अस्ति द्वितीय अध्यासे तृतीयपादम् एक नवदशसूत्रम् इति तस्य तृतीयार्थे तस्य अधिकारः भवति हेतुपर्यन्तं यदि बहवः सूत्राणि सन्ति हेतुपर्यन्तम् इति तस्य तृतीयार्थे इति बहवः अर्थाः सन्ति यस्य तृतीया विभक्तिः भवति किन्तु कारकविभक्तिः बलवत् भवति अप्रधाने इति युक्ते यत् कारकबलवत् अस्ति तत् न स्वीकृतम् अस्ति अस्मिन् सूत्रे केवलं कः कथं केवलं सहयुक्ते अप्रधाने इति सूत्रं स्वीकृतमस्ति न तु अन्याः अन्यानि सूत्राणि स्वीकृतमस्ति तस्य एका परिभाषा भगिनी उक्तवती पुरस्तात् अपवादात् अनन्तरां विधिं भागते उत्तरान् इति यत् सः तृतीयार्थे इति पूर्वसूत्रम् अस्ति तस्य अनन्तरं कर्तुकर्णयो इति सूत्र अस्ति कारकविभक्ति कृते तस्य अत्र योजनं नास्ति सहयुक्ते प्रधाने इति प्रथमं सूत्रम् आगच्छति हेतोपर्यन्तं ये तृतीया विभक्त्यां प्रति अस्ति तस्य इति एव योजनम् अस्ति पुरस्तात् अपवादः अस्ति अनन्तरं विधिः अस्ति इति पुरस्तात् अपवादः अस्ति अपवादत्वेन कर्तुकरणयोः न स्वीकृतम् अस्ति सहयुक्तेन अनन्तरम् अस्ति तस्य इति इदानीं वयं भगिनी उक्तवती यथा तर्जनी इति भवति ओङ्ग्ली मध्यमा अस्ति तस्य अनन्तरम् अनामिता भवति तत् उत्तरान् इति यत् सूत्रं सहयुक्ते इति भवति तृतीयार्थे इति उत् भवति उत्तरान् इति न उत्तरान् इति अनन्तरं सूत्रम् आगच्छति इति परिभाषाया सूचयामि
क्षम्यता भगिनी अत्र भवत्याः ध्वनेः किञ्चित् क्लेशः अस्ति अवगमने अतः किमपि मया न अवगतम् इत्युक्ते अत्र कस्य प्रश्नस्य उत्तरं भवती दत्तवती इति न जाने प्रश्नः आसीत् अप्रधाने अत्र अप्रधाने इत्यस्य किमर्थम् अप्रधाने इति सूत्रे स्थापितम् इति
कारणकर्तकरणयोः तृतीया इति बलवत् अस्ति तस्य तत् न स्वीकृतमस्ति तृतीया विभक्ति तस्य अर्थाः बहवः सन्ति तस्य तृतीया चेत् सूत्रं किन्तु केवलं समयुक्ते प्रधाने अत्र
भगिनी तत् प्रश्नः सः प्रश्नः नासीत् भगिनी अत्र मम प्रश्नः आसीत् अप्रधाने इति पदस्य विवरणम् इत्युक्ते यथा भगिन्या उक्तं रामेण सह सीता गच्छति तत्र गमनक्रिया रामः प्रथमं वनं गच्छति तेन सह सीता गच्छति चेत् तत्र प्रधानः कः अप्रधानः कः इति संशयः।
अस्तु हेमा भगिनी, अत्र काशिकायाम् एकम् उदाहरणं दत्तमस्ति, तद् वदामि, तस्य उदाहरणस्य परिशीलनं भवती करोतु। अप्रधाने इति किं? शिष्येन सह उपाध्यायस्य गौः इति उदाहरणमस्ति।
शिष्येन
सह उपाध्यायस्य गौः,
तर्हि गौः तु उपाध्यायस्य अस्ति इति कृत्वा तत्र षष्टिः अस्ति, सम्बन्धः अस्ति। सः उपाध्यायः इत्युक्ते
न, शिष्येन सह उपाध्यायस्य गौः।
एकं वदतु महोदय, क्षम्यतां।
शिष्येन सह उपाध्यायस्य गौः,
शिष्येन सह यः उपाध्यायः स्थितः तस्य गौः इति वा?
शिष्येन इति तृतीयायाम् अस्ति।
अवगमनं उपाध्यायस्य गौः
न तु शिष्यस्य, न तु शिष्यस्य,
उपाध्यायस्य गौः शिष्येन सह वर्तते इति।
उपाध्यायस्य गौः शिष्येन सह वर्तते इति वा?
अस्ति इति एव वक्तव्यं खलु, शिष्येन सह उपाध्यायस्य गौः, तत्र क्रियापदम् अध्याहारं कुर्मश्चेत् तत्र अस्ति भवति इति किमपि वर्तते। किन्तु एतद् उदाहरणं किमर्थम् अत्र शिष्येन सह इति?
अत्र अत्र एवं मन्ये महोदय, अत्र अप्रधाने इति प्रधानविषयः अत्र अस्ति गौः वर्तते इति, तर्हि गौः प्रधानः अस्ति, गौः शिष्यः तु अप्रधानः अस्ति इति कृत्वा तृतीया विभक्तिः।
ओ
सीता गच्छति रामेण सह, सीता गच्छति, तर्हि अत्र प्रधानः तु सीता अस्ति, यद्यपि रामः गच्छति सीता गच्छति, अस्माकं विवक्षा अनुसृत्य सीता गच्छति इति वक्तुम् इच्छामि, किन्तु केन सह इति रामेण इति अप्रधानः भवति।
तर्हि तत्र भिन्नतया चिन्तयामश्चेत् तत्र रामः प्रधानमपि भवितुम् अर्हति, परन्तु विवक्षाम् अनुसृत्य
क्रियापदेन सीता उक्ता, अतः प्रधानः
आगच्छति, कः गच्छति इति प्रष्टव्यः।
तत्तु सीतया इति कथं वा
भवितुं,
रामः सीतया सह गच्छति खलु,
विवक्षा अनुसृत्य यत्र प्रथमा कृत, यदि रामः प्रधानम् अस्ति तर्हि रामः सीतया सह गच्छति, सीता प्रधाना भवति चेत् रामेण सह सीता।
संक्षेपरामायणश्लोके अपि तथा एव अस्ति, लक्ष्मणेन च सीतया इत्येव।
अस्तु तर्हि अनन्तविष्णुमहोदय, निगमनं किम्? इदानीम् एकम् उदाहरणम् उक्त्वा कस्य प्राधान्यमस्ति, कस्य अप्राधान्यमस्ति, एकमेव उदाहरणं वदतु।
अन्यत् उदाहरणं स्वीकरणीयं वा?
यत्किमपि, एतदेव उदाहरणं स्वीकरोतु, किन्तु पक्षद्वयं वदति चेत् क्लेशः भवति।
ओ अस्तु, रामेण रामः सीतया सह गच्छति इत्यस्मिन् वाक्ये रामः प्रधानः, सीता अप्रधाना इत्यस्मात् कारणात् तस्य पदस्य तृतीया अप्रधाने।
अस्तु, इत्युक्ते सः इति पदस्य अर्थतः अन्वयः तत्र राम अपि च सीता अनयोः मध्ये भवति खलु, किन्तु कस्य तृतीयाविभक्तेः विधानम् इति चेत् अप्रधानस्य एव तृतीयाविभक्तिः इति कृत्वा, तर्हि इतोपि अप्रधानम् एकम् उपयुज्य वाक्यं परिवर्तते वा? लक्ष्मणमपि योजयतु किन्तु अप्रधानत्वेन।
रामः लक्ष्मणेन सीतया च वनं गच्छति,
सः वनं गच्छति,
सत्यं,
समीचीनं। तर्हि इदानीम् अस्मिन् वाक्ये लक्ष्मणः सीता द्वयमपि अप्रधानौ इति कृत्वा, तेषां तृतीयविभक्तिः। अस्तु, इदानीम् अन्तिमप्रश्नः। इदानीम् अत्र रामः लक्ष्मणः द्वयमपि प्रधानः इति उक्त्वा सीता अप्रधाना इति तादृशं वाक्यं वदतु।
रामलक्ष्मणौ सीतया सह गच्छतः।
उत्तमम्। इति अप्रधाने इत्यस्य अर्थबोधः जातः। तर्हि क्रियापदेन यः न उक्तः भवति सः अप्रधानः भवति। तस्य सहयुक्ते तृतीयाविभक्तिविधानं भवति। किन्तु तस्मिन् अर्थे सः इत्यस्मिन् अर्थे अनु इति प्रयोगं कुर्मश्चेत् तृतीयायाः स्थाने द्वितीयाविभक्तिः भवति अनेन सूत्रेण, कर्मप्रवचनीययुक्ते द्वितीया। तृतीयार्थे तत्र सूत्रं किं, तृतीयार्थे इति एव सूत्रं खलु।
तत्र तृतीयार्थः विभिन्नेषु सावसरेषु भवेत्, परन्तु तत्र सहयोगे सहयोगे अप्रधाने तृतीया इत्यस्य एव स्वीकरणं
सत्यं खलु। सत्यं सत्यं। किन्तु अत्र सूत्रं किम् इति, सूत्रसङ्ख्यां न भगिनी लिखति न लिखति इति कृत्वा क्लेशः भवति। तृतीयार्थे इति एव सूत्रम्। 1485 सत्यं। तृतीयार्थे अनुः कर्मप्रवचनीयाः इति सम्पूर्णसूत्रमस्ति। यदि अनुशब्दः तृतीयार्थे इत्युक्ते तृतीयार्थे इत्युक्ते सर्वासु सर्वेषु अर्थेषु इति नास्ति, केवलं सः अर्थे प्रयोगं कुर्मः, अनुशब्दस्य कर्मप्रवचनीया संज्ञा भवति। तदनन्तरं कर्मचर्यतियुक्ते द्वितीया इति सूत्रेण यः शब्दः युक्तः अस्ति, अर्थतः युक्तः अस्ति, तस्य द्वितीया विभक्तिः भवति। यथा नदीम् अनु अवसिता सेना इति। समीचीनं। तर्हि इदानीम् अग्रिमसूत्रं पश्यामः। तत्र धीरे इति, हा वदतु।
अत्र नदीम् अनु अवसिता सेना इत्युक्ते नद्या सह अवसिता सेना इत्यर्थः वा?
नद्या सह इति वदति चेत् नद्या, सत्यं, नद्या सह सत्यम्।
अर्थः अर्थ किम् इत्युक्ते तादृश अर्थः अस्ति,
तदेव अर्थः।
नदीतीरे नद्यायां वसति वा?
नद्याः तीरे ते वसन्ति, तत्र ड्वेल्लिङ्ग् इति कृत्वा नद्या सह ते वसन्ति
तीरे सन्ति। अस्तु,
यत्र नदी वसति तया सह इति। तर्हि नद्या सह अवसिता सेना इति समीचीनम्।
अस्तु,
तस्मिन् अर्थे नदीम् अनु अवसिता सेना, तत्र द्वयोः वाक्ययोः एकमेव अर्थः।
अत्र विकल्प नास्ति, तत्र अनु इति प्रयोगं कुर्मश्चेत् तत्र एव वक्तव्यं। यदा सः इति प्रयोगं कुर्मश्चेत् तत्र सहयुक्ते
नद्या इति एव भवति।
अस्तु,
सत्यम्।
अन्यत् वाक्यं वदामि किं महोदय? मम वाक्यं वनम् अनु वसन्ति व्याधाः वसन्ति व्याधाः वसन्ति इति
वनम् अनु तत्र वनेन सह वदन्ति वा?
तद् आश्रित्य वसन्ति खलु वनेन सह इति,
न अत्र वने एव वसन्ति खलु व्याधाः इत्युक्ते अर्थः कः?
व्याधः इति हण्टर्स् इति,
हण्टर्स्। अस्तु, किन्तु
वने एव वसितव्यम् इति नास्ति किल, तत्र पार्श्वे वस।
अस्तु अस्तु, तादृश विवक्षा अस्ति चेत् समीचीनम्। इत्युक्ते वनस्य पार्श्वे ते वसन्ति इति चेत् सत्य सत्यं तादृशं भवितुमर्हति। अस्तु, तर्हि तृतीयार्थे इति सूत्रम्
अनेन पितरम् अनु पुत्रः गच्छति।
पितरम् अनु पुत्रः गच्छति,
पित्रा सह पुत्रः गच्छति, तदेव वाक्यं पुत्रम् अनु पितरम् अनु पुत्रः गच्छति। तत्र यत्र यत्र सहयोगः भवति तत्र भवितुं
सत्यम्। आम्, तत्र सः इति उदाहरणानि यानि सन्ति तत्र सर्वत्र अनु इति स्थापयित्वा द्वितीयाविभक्तिं परिवर्तनं कृत्वा वाक्यं वक्तुं शक्नुमः उदाहरणत्वेन. अस्तु, तर्हि तृतीयार्थे इति सूत्रम् इति सर्वे मनसि संस्थापयन्तु. अनेन सूत्रेण किं विधानमस्ति इति चेत्, अनु इति शब्दस्य सहार्थे प्रयोगं कुर्मश्चेत् अनुशब्दस्य कर्मप्रवचनीयसंज्ञा भवति इति तृतीयार्थे इति सूत्रस्य सूत्रं वदति. यदा कर्मप्रवचनीयसंज्ञा भवति तर्हि कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण यः शब्दः अनुशब्देन अर्थतः युक्तः अस्ति तस्य द्वितीयविभक्तिः द्वितीयाविभक्तेः विधानं भवति इति. तर्हि नदीमनु अवसिता सेना इत्यत्र अनु इति शब्दस्य प्रयोगः सहार्थे केन सूत्रेण इति चेत् तृतीयार्थे इति सूत्रेण. नदीम् इत्यस्य द्वितीयाविभक्तिः केन सूत्रेण इति चेत् कर्मप्रवचनीयुक्ते द्वितीया इति वक्तव्यम्. तथा एव मया पृष्टमासीत् अत्र हेमा भगिन्याः उदाहरणम् एकम् आसीत् खलु अत्र वाट्साप् ग्रूप् मध्ये प्रेषितवती, तत् वदति वा हेमा भगिनी पुनः?
आं महोदय, एकनिमिषम्.
अनवरतम् अभ्यासम् अनु,
अनवरतम् अभ्यासम् अनु कारक विषय अवगच्छाम् गच्छाम इति आसीत् किल? तर्हि
तत्र वदतु
न, पृच्छतु किं
अनु इति शब्दस्य कस्मिन् अर्थे केन सूत्रेण अस्मिन् वाक्ये प्रयुक्तम् इति प्रश्नः आसीत्.
तत्र अनवरत अभ्यासेन इति कुर्मश्चेत् तत्र सः इत्यर्थे जायते इदानीं तृतीया यत् दृष्टवन्तः, परन्तु अत्र तु अनु इति
अनु तादृश अत्र सः अर्थे एतद्वाक्यम् अर्थ किम् अर्थभूतं भवति वा
तत्र?
हेतुरूपेण सः इति न भवति खलु? हेत्वर्थे सः न प्रयोगं कुर्मः किम्?
करणेन सः युक्ते एकनिमिषम् अनवरत अभ्यासेन कारकविषयावगच्छाम इति न भवति वा तत्र? सः
सः तत्र तु इदानीं कस्मिन् अर्थे तृतीया प्रयुक्ता?
तत्र तु केवलं हेत्वर्थे अस्ति.
समीचीनं.
इदानीं
हेत्वर्थे अनु अनुशब्दस्य प्रयोगः तादृशसूत्रम् अस्माभिः एतावत् पठितं किम्?
पुनः प्रश्नः पृच्छतु महोदय. हेत्वर्थे
अभ्यासेन इति तत्र तृतीया हेत्वर्थे प्रयुक्तम् इति तु सत्यं, किन्तु हेत्वर्थे अनुशब्दस्य कर्मप्रवचनीयसंज्ञा विधानसूत्रं किमपि भवेत् खलु?
अनुलक्षणे
समानमेव किल? अनुर्लक्षणे यद् वयं कर्मप्रवचनीयसंज्ञा भविष्यति तत्र द्वितीया भवति कर्मप्रवचनीययुक्ते द्वितीया इति, अतः अत्र अनुशब्दं योजितम्. अनुशब्दः यदा योजितं तत्र लक्ष्यलक्षणसम्बन्धं द्योतयति, इत्युक्ते अभ्यासक्रियायाः अपि च अवगमनक्रियायाः सम्बन्धं द्योतयति इति कृत्वा तत्र अनु इति योजयामः. अनु इत्यनेन तत्र लक्षणं द्योतते इति कृत्वा अनवरत अभ्यासस्य कर्मप्रवचनीयसंज्ञा भूत्वा तत्या भवति.
हा, किन्तु तत्र सती सप्तमी प्रयोगः अस्ति इति मनसि भवेत्.
सती सप्तमी रूपेण इदानीं वाक्यं वक्तव्यं,
यदा अभ्यासं कुर्मः तदा इति भवति खलु? इति किञ्चित् वैशिष्ट्यमस्ति. अस्तु, भवतु. तर्हि मम प्रश्नस्य उत्तरम् अस्ति अनुर्लक्षणे इति सूत्रेण अस्मिन् वाक्ये अनु इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, तदनन्तरं कर्मप्रवचनीयुक्ते द्वितीया इत्यनेन हेतुरूपे लक्ष्यलक्षणसम्बन्धे द्योत्ये इति वक्तव्यं. केवलं हेतुः इति वदामश्चेत् क्लेशः भवति, तत्र भेदः अस्ति. हेतुरूपे लक्ष्यलक्षणभावसम्बन्धे द्योत्ये अनुः शब्दस्य कर्मप्रविचनीयसंज्ञा भवति इति अनुर्लक्षणम् इति सूत्रं साक्षात् हेतोः अस्तु अत्र भिन्नवाक्यम् एकं वदतु हेतु केवलं हेतुं हेतुरूपेण एकं वाक्यं वदतु
रामः बाणेन रावणं हतवान्
अस्तु तत्र करणार्थे अस्ति वस्तुतः
तत्र अभ्यासेन अवगमनं जायते इति केवलम्
अस्तु
विद्यया तादृशमेकं दृष्टवन्तः
हा किन्तु अत्र हेतुः क्रिया एव इति नास्ति इत्युक्ते मृत्तिकया घटः इति वदामश्चेत् तत्र मृद् मृत्तिका अस्ति अत्र हेतुः अस्ति किन्तु द्रव्यमस्ति द्रव्यमस्ति इदानीं अत्र हेत्वर्थमस्ति मृत्तिकया इति हेत्वर्थे तृतीया प्रयुक्तम् इति कृत्वा मृत्तिकया घटः जायते इत्यस्मिन् वाक्ये अनुप्रयोगं कर्तुं शक्यते वा मृत्तिकाम् अनु घटः जायते इति वक्तुं शक्यते किम्
अत्र सहार्थे अप्रधाने इति नास्ति खलु
न न इदानीं हेत्वर्थे सः इति त्यजतु
अनुर्लक्षणे इति
अनुर्लक्षणे इति सूत्रस्य एकनिमिषं महोदय हेमा भगिनी वदतु
सम्बन्धः वर्तते वा इति द्रष्टव्यं प्रथमं
तत्र कृत्वा एव अत्र मृत्तिकया घटः जायते इत्यस्मिन् वाक्ये मृत्तिकया इति पदस्य तृतीयविभक्तिः हेत्वर्थे प्रयुक्तं हेत्वर्थे लब्धं हेतौ इति सूत्रेण किन्तु इदानीं हेतुत्वं मृत्तिकयाम् अस्ति इति कृत्वा मृत्तिकाम् अनु घटः जायते इति प्रयोगः कर्तुं शक्यते इति चेत् न अत्र अन्या क्रिया भवेत् खलु कर्मप्रवचनीयः अस्ति खलु अतः अन्वर्थसंज्ञा इति उक्तम्
इत्युक्ते तत्र कर्म प्रोक्तवन्तः क्रिया प्रोक्तवन्तः तादृशं नास्ति तत्र केवलं
सत्यं द्रव्यम् इत्युक्ते हेतुरूपेण हेतुरूपेण द्रव्यं भवितुमर्हति क्रिया अपि भवितुमर्हति इदानीं हेत्वर्थे यथा भगिन्या उक्तम् अभ्यासेन बोधः जायते इत्यस्मिन् वाक्ये इदानीम् अभ्यासेन इति तत्र तृतीया हेत्वर्थे एव प्रयुक्तं किन्तु इदे अभ्यासम् इति क्रिया एवं मृत्तिकया घटः जायते इत्यत्र मृत्तिका इति क्रिया नास्ति द्रव्यमस्ति तत्रापि हेतुः द्रव्यमपि हेतुः क्रियापि हेतुः भवितुमर्हति किन्तु यत्र क्रिया हेतुः भवति तत्रैव अनुशब्दः वक्तुं शक्यते तत्रैव लक्ष्यलक्षणभावसम्बन्धः कर्मप्रवचनीयशब्देन वक्तुं शक्यते तत्र हेतुरूपे लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इति कृत्वा मृत्तिकाम् अनु घटः जायते इति न वक्तुं शक्यते इति कृत्वा यस्य च भावेन भव इत्युक्ते सतिसप्तमी यत्र भवति तत्रैव अनुः अनु अनुशब्दः अनुशब्दस्य प्रयोगः कर्तुं शक्यते इति अस्ति
यद्यपि तत्र लक्षणं तु मृत्तिका इति वक्तुं शक्नुमः लक्ष्य अपि च घटस्य निर्माणम् इति परन्तु तत्र पूर्वकर्म न उक्तम्
इति कृत्वा हेतु हेतु हेत्वर्थे इति न अवगन्तव्यम् इत्युक्ते यत्र क्रिया हेतुः भवति क्रिया कुत्र हेतुः भवति यस्य च भावेन भावलक्षणं सतिसप्तम्यामेव हेतुः भवति खलु एकां क्रियां स्वीकृत्य अन्यां क्रियां बोधयामश्चेत् तदा एव क्रिया हेतुः भवति लक्षणं भवति तर्हि सतिसप्तमीप्रयोगः यत्र भवति तत्रैव अनुर्लक्षणे इति सूत्रेण अत्र अनु कर्मप्रवचनीयसंज्ञा प्राप्तुं शक्यते नो चेत् न
गभीरचिन्तनं सम्यक् अस्ति
अस्तु
एवम् उदाहरणं वक्तुं शक्यते वा?
किं
मृत्तिकायाः मर्दनम् अनु घटं निर्माति?
आमां, तत्र मर्दनम् इति क्रिया यदा भवति, भवतु कस्य मर्दनम् इति तत्र इदानीं सम्बन्धषष्ठी अस्ति खलु तत्र
मृत्तिकायाः मर्दनं,
हा
तत्र मर्दनम् इति, ओ तत्र मर्दनम् इति पदस्य एव
अन्वयः अर्थतः सम्बन्धः अस्ति अनुशब्दस्य,
सत्यं तस्मात्
इति कृत्वा, हा अतः एव तस्य नाम अस्ति कर्मप्रवचनीया इति. कर्मप्रवचनीया इत्युक्ते अन्वर्थसंज्ञा इति उक्तं खलु, क्रियां प्रोक्तवन्तः ये शब्दाः ते कर्मप्रवचनीयाः इति कथ्यन्ते. तर्हि हेतुरूपेण क्रिया भवेत् तदा एव भवति.
महोदय नमस्ते महोदय, एकः वाक्यम् एकं वाक्यं वदामि, तत्र सम्यक् वा वदतु. अध्यापकः प्रश्नं पृष्टे सति छात्रः वदति, तत्र सतिसप्तमीप्रयोगः अस्ति. तत्र यदि परिवर्तनं कुर्मः प्रश्नं अनु
एकनिमिषम् अध्यापकः प्रश्नं पृष्टे सति वा?
हा
इति वाक्यं समीचीनं वा?
प्रश्ने पृष्टे अध्यापकेन वा न पृष्टे सति वा प्रश्ने पृष्टे
अध्यापकेन इति कर्म भवति तत्र कर्मपदं
पृष्टः इति क्रान्तपदमस्ति खलु कर्मणि?
आम् आं महोदय.
तर्हि कर्ता अध्यापकः एव कर्ता खलु, सः एव पृच्छति.
आं सत्यं
पृष्टः इति तान्तपदेन न उक्तः इति कृत्वा तस्य तृतीया भवति कर्तृकरणीयस्तृतीया अध्यापकेन.
ओ अस्तु, अध्यापकेन प्रश्नं पृष्टे सति वक्तव्यं वा?
प्रश्नं नास्ति,
प्रश्ने सप्ति सप्तमी किल प्रश्न
इति कृत्वा एव मया उक्तं तत्र भाववतः सप्तमी इति.
अस्तु अस्तु,
इत्युक्ते क्रियाप तत्र कृदन्तपदेन यः उक्तः अस्ति पृष्टः इति कस्मिन् अर्थे प्रयुक्तं? कर्मणि कर्मण्यर्थे प्रयुक्तं खलु?
आं महोदय.
तर्हि यः उक्तः भाववतः इदानीं कर्म भवति, प्रश्नः एव कर्म इति कृत्वा तस्य सप्तमी, तस्य विशेषणम् इति कृत्वा पृष्टे इत्यस्य सप्तमी.
अस्तु तर्हि
अध्यापकेन प्रश्ने पृष्टे सति इदानीं वदतु
पृष्टे सति छात्रः वदति, तत् तस्य वाक्यस्य परिवर्तनं भवति किल, भवितुमर्हति वा?
परिवर्तनम् इत्युक्ते न बुद्धं किम्?
अनु इति उपयोगं कृत्वा अनुर्लक्षणे इति सूत्रे इति वक्तुं किमर्थम् इति?
सत्यं तत्र भावमस्ति खलु, सतिसप्तमीप्रयोगः यत्र अस्ति तत्र एव अनुर्लक्षणे इति सूत्रस्य प्रयोगः भवति.
अस्तु तर्हि किं भवति तत्र तस्य वाक्यस्य कथं परिवर्तनं करणीयं?
प्रयत्नं करोतु.
अस्तु प्रश्नं अनुवदति छात्रः, परन्तु अध्यापकः न जानामि कथं योजनीयम्. तत्र अनुवदति इति वक्तु अनु छात्रः अनुवदति, तत्र
छात्रः वदति तत्र किमपि परिवर्तनं न भवति.
अस्तु अस्तु, अनु कुत्र योजनीयम्? अनुवदति न वक्तव्यं वा तत्र? किमर्थम् इत्युक्ते
न अनुवदति इति वदति चेत् इदानीं कर्मप्रवचनीयसंज्ञत्वेन प्रयोगं न क्रियते खलु, तत्र उपसर्गत्वेन भवति वदति.
अस्तु
अध्यापकः वदति छात्रः अनुवदति इत्यत्र अनु इति उपसर्गत्वेन प्रयुक्तं न तु
न महोदय, प्रश्नः तु हेतुभूतकः, यदा प्रश्नः पृष्टः अध्यापकेन तत्र तु हेतुवाचकः अपि भवति लक्षणे अपि भवति किल तत्र?
भगिनि अत्र वाक्यं पुनः वदतु, अध्यापकेन प्रश्ने पृष्टे
सति
छात्रः वदति.
अस्तु
तर्हि कृपया अनुवदति इति मा वदतु, नो चेत् भ्रमः जायते. छात्रः वदति,
छात्रः वदति एव सम्यक् भवति महोदय. तत्र कर्मप्रवचनीय इति योजयामः तत्र किं भवति इति मम प्रश्नः.
आम् प्रयत्नं करोतु. तर्हि अत्र अनु इति स्थापयतु अस्मिन् वाक्ये.
अस्तु, तर्हि अधुना तु वदति इति अनुवदति भवति. किमर्थम् इत्युक्ते तदेव क्रिया द्योतयति, परन्तु न क्षम्यतां लक्ष्यमस्ति किल, तदेव लक्ष्यमस्ति. छात्रः अनुवदति, परन्तु कदा अनुवदति इत्युक्ते प्रश्नं श्रुत्वा सः अनुवदति. समीचीनम्.
तत्सर्वम् अत्र वाक्यस्य अर्थः सर्वैः बुद्धः, किन्तु इदानीम् अनु इति प्रयोगं कृत्वा रचयतु वाक्यम् इदानीम्.
अहं चिन्तयामि
भवत्याः विवक्षा सर्वैः अवगतम्.
हा, कथं करणीयम् इति मम प्रश्नः महोदय.
प्रयत्नं करोतु, तदनन्तरं परिष्कारं कुर्मः.
हा, तत्र प्रथमक्रिया तु न लेखनीयं किल, तत्र जपं तत्र यदा वयं पठितवन्तः तत्र जपं किमस्ति, जपम् अनुवर्ष
जपमिति भावार्थे अस्ति, ततः अतः एव मया पृष्टं खलु तत्र जपः इति कस्मिन् अर्थे इति चेत् भावार्थे.
सत्यं सत्यं. तर्हि प्रश्नं तत्र भावार्थे नास्ति, तु कथं प्रथमं क्रिया तु लेखनीयं वा, तत्र मम प्रश्नः तदेव अस्ति.
अप्रयुज्यमानस्य इति उक्तमस्ति खलु, तदपि अस्माभिः पठितम्.
अस्तु अस्तु, तर्हि
अप्रयुज्यमानस्य क्रियाम् आहुः.
अस्तु, तर्हि प्रश्नं अनुवदति छात्रः भवति वा.
अत्र न प्रश्नं अनुवदति छात्रः इत्यत्र प्रश्नं इति कस्मिन् अर्थे प्रयुक्तम्? भावार्थे वा कर्मार्थे वा?
न, भावार्थे तु नास्ति, कर्म द्वितीयविभक्ति अस्ति, कर्मार्थे एव भवति महोदय.
तर्हि भावः भवेत् खलु, भावमेव सूचयति अनु इति पदम्, अपि च द्वयोः क्रिययोः मध्ये सम्बन्धः सूचयति.
अस्तु
अस्तु, किं करोतु, अत्र चिन्तयतु कथं भवति इति, भवती स्वयं चिन्तयति चेदेव अत्र स्पष्टता जायते. तर्हि वाट्साप् ग्रूप् मध्ये प्रेषयतु भवत्याः निगमनं किम् इति, तदनन्तरं तस्मिन् विषये अन्येषां चिन्तनं भवतु.
अस्तु अस्तु महोदय.
अस्तु, इदानीम् अग्रिमसूत्रं हीने इति, तत्र गच्छेम. श्रीराम महोदय.
आम् महोदय, हीने सूत्रार्थः हीनार्थे द्योते अणु, अणुः कर्मप्रवचने सम्यको भवति. अनेन सूत्रेण कर्मप्रवचनीयसंज्ञायां कर्मप्रवचनीययुक्ते द्वितीया इति द्वितीया जायते, यथा अणु हरिं सुराः, हरेः निष्कृष्टाः देवताः इति तात्पर्यम् अस्तु. हीनार्थे हीनार्थे अणुः इति कर्मप्रवचनसंज्ञको भवति. अनेन सूत्रेण अत्र अणु हरिं सुराः, सुराः इति अस्ति, सुराः इत्युक्ते देवताः, अन्यदेवताः इति, इन्द्रादिदेवताः इति अस्ति. ते हरिसदृशाः न सन्ति, हरि एव श्रेष्ठः अस्ति इति कृत्वा हरि यः श्रेष्ठः अस्ति तस्य कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण तत्र द्वितीया विभक्तिः भवति. अणु इति तत्र हीनार्थे, हीनार्थे इत्युक्ते सुराः एव हीनाः इत्युक्ते तेषां हरिव किं वक्तव्यं, तत्र ते श्रेष्ठाः न सन्ति.
अत्र श्रेष्ठ इति पदं कृपया महोदय विवर यदा विवरणं ददाति तत्र श्रेष्ठ इति पदं मा उपयोगं करोतु, किमर्थमित्युक्ते हीने इति सूत्रमस्ति खलु,
तत्र ते हीनाः सन्ति एवं वदन्ति ते हरेः अपेक्षया हीनाः सन्ति इति कृत्वा तत्र हरि इति यत् पदम् अस्ति तत्र तस्य पदस्य द्वितीया विभक्ति भवति. यदा वयम् अणु इति कर्मप्रवचनीय तत्र प्रादि उपयुज्य वाक्यं रचयामः, अत्र अणु इति हीनार्थे हीन ये देवताः सन्ति तान् सूचयन्ति वा, तान् सूचयति वा अणु इति पदम्?
यदि यदि ये हीनाः सन्ति तेषां सूचना करोति अणु इति शब्दः, इत्युक्ते शब्दतः किं हीनैः सह तत्र तस्य अन्वयः अस्ति चेत् कस्य द्वितीयविभक्तिः प्रापणीया?
यः हीनः नास्ति तस्य एव.
तर्हि तत्र वाक्यं तादृशं वदतु, उपपादने तादृशं वदतु, यस्य अपेक्षया अन्ये हीनाः सन्ति तस्य
द्वितीया विभक्तिः भवति. अत्र हीने इति एव सूत्रं, तत्र अनुर् कर्मप्रवचनीयाः इति अणु इति अपि अणुवृत्तिरूपेण आगच्छति. अणु अणुर्लक्षणे इति सूत्रेण अणु, कर्मप्रवचनीयाः इति तत्र संज्ञा अणुवृत्तिरूपेण आगच्छति वा? हीने
सत्यं हीने अनुः कर्मप्रवचनीयाः
सम्पूर्णसूत्रं
हीने अनुः कर्मप्रवचनीयाः इति सम्पूर्णसूत्रमस्ति. तर्हि अत्रापि कर्मप्रवचनीय इति संज्ञा एव उक्तं, तर्हि कर्मप्रवचनीय इति संज्ञायाः अर्थः कः? केवलं पुनस्मारणार्थं पृच्छन्नस्मि.
तत्र क्रिया प्रोक्तवन्तः, क्रिया प्रोक्तवन्तः कर्मप्रवचनीयाः इति अस्ति. अत्र क्रिया कथं वदति महोदय, तत्र कर्मप्रवचनीयः क्रिया कथं भवति इति अस्मिन् उदाहरणे
इति प्रश्नः.
तत्र पूर्वस्मिन् अनुर्लक्षणे तत्तु स्पष्टः आसीत्, अस्मिन् उदाहरणे कथं वा क्रियां द्योते इति अणु इति
हीन इति कीदृशपदमस्ति?
हीनः हीनः तान् तव हीने हीनः अस्ति सः हीनः अस्ति इति वदामः वा?
भव्या भगिनी वदति वा हीन इति?
महोदय अत्रैव भगिन्यावत् दत्तमस्ति निकृष्टाः इति, इत्युक्ते नीचाः इति अर्थे
न, किन्तु केन धातुना निर्मिष्टः अस्ति निर्मितः अस्ति इति हीन इति पदं तान्तपदमस्ति. अत्र हा इति धातुः, हा इति धातुः, अत्र किं के लीना भगिनी कृपया,
सकारलोपः भवति किञ्चित् निति प्रत्ययपरि
पुनः वदतु भगिनि.
ही धातु ता प्रत्यय आगच्छति अत्र, ता नकार आदेशः भवति.
तस्मात् पूर्वम् अस्तु, अर्णा भगिनी वदतु अत्र केन सूत्रेण इत्युक्ते प्रथमं धातुः कः हा इति धातुः न तु हि
हा धातु हा योगः क्ताप्रत्यय निष्ठाप्रत्यय आगच्छति अत्र इदागमः आगच्छति तदनन्तरं तास्थाने नकार सूत्रं न
इदागमः अत्र दीर्घ ईकारः अस्ति अस्तु भवतु तर्हि तत्र केनापि सूत्रेण तत्र आकारस्य स्थाने ईकारः आगच्छति इति चिन्तयतु तदनन्तरं तकारस्य स्थाने नकारः कथं जायते तदेव भवती उक्तवती आसीत् खलु किम् अस्तु भवतु भव्य भगिनि वदतु गुमाता गापाजहाति सां हलि
हलि इत्यनेन हलि परे हलिपरिक्तप्रत्ययः हलि अस्ति इति कृत्वा हलि परे ईकारादेशः भवति अन्तिमस्वरस्य
केवलं हलि वा कित् तत्र कित् अपि भवेत् खलु
मिति मिति हलि इति
इति हलि
आतः आकारस्य क्षम्यताम् आतः इत्युक्ते अस्ति आकारस्य ईत्वं भवति अनन्तरं नकारादेशः केन सूत्रेण इति पूर्वं स्मरामि स्म
अत्र आम् मयापि विस्मृतम्
ओदितश्च
ऊदितश्च वा
ओदितश्च
ओदितश्च सूत्रं प्रतिपादयति वा श्रीविद्या भगिनी
ओकारान्तधातुः अस्ति इत्युक्ते ओकारः इत्संज्ञा अस्ति तादृशधातुः निष्ठाप्रत्ययस्य तकारस्य नकारादेशः अत्र
इत्युक्ते हा धातोः ओकारः
ओहाक्
ओहाक् अस्तु अस्तु आदौ अस्ति ओ इति ओद् इतश्च इति सूत्रेण तत्र नकारस्य तकारस्य स्थाने नकारादेशः भवति इति अस्ति अस्तु किन्तु इदानीं किञ्चित् विषयान्तरं जातम् अस्तु तर्हि अस्माकं पुरतः कः प्रश्नः अस्ति इदानीं हा इति धातुः तर्हि तस्य रूपं भवति किं भवति हा धातोः लट्लकारप्रथमाविभक्तिरूपं किं भवति
जहाति इति
ज्योत्यादिगणीय धातुः किं
जहाति इति खलु
आं जुहोत्यादिगणः
आं जुहोत्यादिगणः एव
अस्तु
जहाति
जहाति इति अस्ति तर्हि कर्मप्रवचनीयसंज्ञा कथम् इत्युक्ते अत्र अनु इति शब्देन किमपि यथा जपम् अनुप्रावर्षत् इत्यत्र जप इति क्रिया उक्ता अस्ति तदा एव कर्मप्रवचनीया इति संज्ञा प्राप्यते खलु तर्हि एवम् अत्र कया क्रियया अत्र क्रिया का इति प्रश्नः आसीत् अनुहरिं सुराः इत्यत्र अनन्तरिक्षमहोदय तत्र भवतः चिन्तनं किं
हा धातुः अस्ति हा धातुः धातुद्वयं वर्तते ओहा त्यागे ओहाङ् गतौ इति अस्ति तत्र त्यागार्थे अस्ति वा न जाने परन्तु गत्यर्थे अपि तत्र हीनः
न्यूनार्थे इति स्वीकुर्मः महोदय न्यूनार्थे इति
परन्तु धातोः अर्थः तथा न खलु
तथा बहवः भवन्ति किल यथा भव्या भगिन्या उक्तं तत्र भिन्न अर्थाः अपि भवितुम् अर्हति तत्र तु केवलं त्यागे इति दत्तं
तत्र त्यागे इत्यर्थे तत्र
टु नेग्लेक्ट् इत्यपि अस्ति किल इतोपि भवन्ति, परन्तु तत्र हीनार्थे इति स्वीकुर्मश्चेत् तत्र यत्र न्यूनाः भवन्ति, निकृष्टाः भवन्ति.
हा, तर्हि अनु इति कर्मप्रवचनीयसंज्ञकपदेन का क्रिया?
परन्तु तथा भवति चेत् हीनार्थे इति भवति चेत् तत्र हीनार्थः हरौ नास्ति खलु? सुरेषु अस्ति.
यत्र हीनार्थं बोधयति तत्र उत्कृष्टः यः अस्ति तस्य एव कर्मप्रवचनीयसंज्ञा भवति.
कुत्र उच्यते तत्र सूत्रं? कुत्र उच्यते तत्र श्रेष्ठतमः यः तस्य कर्मसंज्ञा, तस्य तेन सह अनुगच्छति इति कुत्र दीयते? सूत्रं तु हीनार्थे इति एव अस्ति खलु. ओ, हीनार्थे द्योत्य
द्योते सति
हीनार्थे. हीनार्थः, हीनार्थस्य बोधनं येन भवति इति चिन्तनीयं वा? हीनार्थः बोधितः केन? हरिणा. इत्यस्मात् कारणात् हरिशब्दस्य द्वितीया इति वा?
अस्तु, अहं काशिकातः पठामि. हीनः इति न्यूनः उच्यते. हीनः इति शब्देन कः उक्तः इत्युक्ते, हीनशब्दस्य अर्थः कः इत्युक्ते न्यून इति अर्थः इति उक्तं काशिकायां. तर्हि हीनः इति न्यूनः उच्यते, स च उत्कृष्टापेक्षः इति. इत्युक्ते तत्र अपेक्षा वर्तते खलु. हीन इति पदं प्रयोगं कुर्मश्चेत् सापेक्षापदमस्ति. तस्मात् इति प्रश्नः उदेत्येव. तर्हि स च उत्कृष्टापेक्षः, तेन इयं हीनोत्कृष्टसम्बन्धे संज्ञा विज्ञायते. इत्युक्ते अत्र कर्मद्वयं भवेत् तत्र सम्बन्धः अपि भवति. तत् सम्बन्धः एव वदति कर्मप्रवचनीयसंज्ञकशब्दः इति अस्माभिः अधीतं खलु. तर्हि हीन उत्कृष्टसम्बन्धे द्योत्ये, हीने द्योत्ये अयमनुः कर्मप्रवचनीयसंज्ञा भवति इति वाक्यमस्ति. पुनः पठामि, काशिकायाम् एवं लिखितमस्ति. हीनः इति न्यूनः उच्यते, स च उत्कृष्टापेक्षः, तेन इयं हीनोत्कृष्टसम्बन्धे संज्ञा विज्ञायते. हीने द्योत्ये अयम् अनुः कर्मप्रवचनीयसंज्ञा भवति. संज्ञः भवति, संज्ञो भवति इति वाक्यमस्ति. तर्हि तत्र कर्म, अत्र कर्मप्रवचनीयसंज्ञकेन का कर्म, किं कर्म उक्तम् इति चेत् उत्कर्षणकर्म उक्तः इति स्वीकर्तव्यम्. तस्य यस्मिन् उत्कर्षणमस्ति तस्य द्वितीयविभक्तिः विधानं भवति अनु इति शब्दस्य युक्ते. तर्हि कां क्रियां बोधयति इति चेत् उत्कर्षणक्रियामेव बोधयति इति अर्थः स्वीकरणीयः. अत्र काशिकां पठित्वा एतादृश अवगमनं मम अस्ति. समीचीनं वा? अन्येषां चिन्तनमस्ति वा?
तत्र हीन उत्कृष्टभावः इति अवगतं. हीन उत्कृष्टसम्बन्धः अस्ति इत्यस्मात् कारणात् तत्र हीन उत्कृष्टभावः. यदि हीनः भवति उत्कृष्टः अन्यः भवति इति तादृशभावः अस्ति. तस्यां तस्मिन् भावे अस्तु, तत्र हीनत्वं, हीनत्वस्य अवगमनम् अस्ति. तत्र कर्मप्रवचनीयसंज्ञा कर्मणः, तत्र अत्र हरिपदस्य कथम् इति स्पष्टता न
इत्युक्ते, अत्र हीन इति शब्दः सापेक्षशब्दः अस्ति खलु इति कृत्वा तत्र अपेक्षा कस्य अपेक्षया हीनः इति चेत् उत्कृष्टस्य अपेक्षया.
ओहोहोहो, उत्कृष्टम् इति पूर्वं प्रोक्तम् इति चिन्तनीयं खलु.
हा,
उत्कृष्टः इति पूर्वं तादृशभावः पूर्वप्रोक्तः कर्मच प्रवचनः इत्युक्ते पूर्वप्रोक्तः इति चिन्तनीयं.
हा, सत्यं सत्यम् इति अस्ति. अतः एव अत्र अत्र सिद्धान्तकौमुद्यां केवलम् एवमेव दत्तमस्ति, हीने द्योत्ये अनुः प्राग्वत् इति, पूर्वं यथा उक्तं तथा इति. किन्तु अत्र काशिकायाम् इतोपि स्पष्टतया दत्तं, हीनः इति न्यूनः उच्यते, स च उत्कृष्टापेक्षः, तेन इयं हीन उत्कृष्टौ सम्बन्धे द्योत्ये संज्ञा विधीयते. हीने द्योत्ये अयम् अनुः कर्मप्रवचनीयसंज्ञा भवति, संज्ञः भवति इति उक्तमस्ति. अनुशाकटायनं वैयाकरणाः, अनु अर्जुनं योद्धारः इति उदाहरणद्वयं दत्तमस्ति काशिकायां. तत् तर्हि यस्मिन् उत्कर्षणम् अस्ति तस्यैव अनु इति. तत्र हीने इत्युक्ते अत्र हीनार्थे द्योत्ये इति चेत् तत्र किञ्चित् क्लेशः भवति, इति यस्मिन् हीनत्वम् अस्ति तादृशं भवति, किन्तु तादृशं नास्ति वस्तुतः.
विपरीतमस्ति महोदय,
विपरीतमस्ति. हा,
तृतीयार्थे तु तत्र तस्य विपरीतमर्थे हीनार्थे तत्र
न, तत्रापि विपरीत अर्थः नास्ति, किन्तु तृतीयार्थे इत्युक्ते सहार्थे इति एव अवगमन्तव्यं.
तत्तु
सहार्थे द्योत्ये.
हा, यदि हीने इति वक्तव्यं चेत् तत्र भ्रमः जातः.
सत्यं,
द्वितीया भवति वा इति मम प्रश्नः भवति. अस्तु,
हा, इत्युक्ते अत्र हीनः इति शब्दः सापेक्षशब्दः इति कृत्वा कस्य अपेक्षया ये हीनाः सन्ति तत्र उत्कर्षणं यस्मिन् अस्ति तदेव पूर्वक्रिया इति
तथा वदति चेत् नद्या सह अन्वसित सेना इत्यत्र क्रिया का, का क्रिया अस्ति?
वसनक्रिया अस्ति खलु.
किं
वसनक्रिया?
न, वसनक्रिया तु अस्ति, परन्तु कर्मप्रवचनीया इत्यत्र प्राक् उक्तवन्तः इत्यत्र का क्रिया अस्ति?
नदीं प्राप्त, नदीं प्राप्तवती
नद्याः पार्श्वे तेन तया सह इति भवति खलु, नदी अस्ति
तेन नदीं प्राप्तवती प्रथमं, तदनन्तरम् आवसति तत्र.
नदी तु अस्ति, नो चेत् नदी अपि वसति, नदी प्रवसति.
अत्र भव्या भगिनी सह 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 इति पदं प्रयुज्य वाक्यं वदतु. नदी मनु अवसिता सेना इत्यत्र
नद्या सह अवति अवसिता सेनाः.
हा, तर्हि तत्र का क्रिया अस्ति नद्यां? वसनक्रिया अस्ति वा नो चेत् भवनक्रिया अस्ति वा?
अवसिताः इत्येव भवति, अवसिता इत्येव भवति, नदी अपि अवसिता.
सत्यं खलु, तर्हि तत्रापि क्रिया उक्तमस्ति प्राक्रियाम् इति, अतः एव वसनक्रिया उक्ता इति मया उक्तं.
सत्यं,
नो चेत् अत्र कर्मप्रवचनीया इति अन्वर्थसंज्ञा इति उक्तं खलु, तर्हि तस्य अर्थः अपि उक्तः. अनीयशब्दः कस्मिन् अर्थे प्रयुक्तं कर्मणि भूते?
अस्तित्वं तु सर्वत्र भवति खलु, अत्र यं कमपि पदार्थं स्वीकुर्मः अस्तित्वं तु भवति, तर्हि तत्र अस्ति इति वदामः चेत् पर्याप्तं वा?
न, अतः अस्ति इति मया न उक्तं, नदी वसति इति मया उक्तं. नद्या सह सेना अपि वसति.
वसनम् इत्युक्ते तत्र जीवः अस्ति चेदेव वसनं खलु.
नदी आसीत् इति भवतु,
प्रवहति इति वक्तुं शक्नुमः वा? नदी वहति
अथवा नदी पूर्वमेव आसीत् इदानीमपि अस्ति इति तादृशं स्वीकरणीयं खलु.
तत्रापि अस्तित्वम् अस्ति खलु, आसीत्
वदति चेत् तत्र विद्यावर्णी आक्षिपति.
स्त्रीलिङ्गशब्द किम् अस्ति? नदी इत्यस्य तु जीवनदी इत्येव वयं वदामः खलु.
विद्या भगिनी, स्थाली पतति इति यदा अङ्गीकरोति तर्हि मम विवक्षा एवम् अस्ति इति कृपया हा तत्र जीवनदी समीचीनं
तत्र अर्जुनम् अर्जुन अन्वर्जुनं योद्धारः इति अस्ति खलु तत्रापि तादृशः एव स्थितिः तत्र अर्जुनः श्रेष्ठः इति तत्र ओ श्रेष्ठः इति तस्मात् कारणात्
उत्कर्षणम्
उत्कृष्णम् अभवत् इति
नास्ति किं महोदय अन्वर्जुनम् इति समीचीनम् अस्ति इति वा अर्जुनम् अनु इति आवश्यकम् अन्वर्जुनमपि समीचीनम्
कुत्रापि स्थापयितुं शक्नुमः सन्धिं कर्तुं शक्नुमः पृथक् अपि स्थापयितुं शक्नुमः अतः अनुर्लक्षणे तत्र सन्धिं कृत्वा दर्शितं परन्तु अत्र अनुहरिं सुराः तत्र सन्धिः न भवति तत्र न कृतम् अन्वर्जनं तत्र सन्धिं
कृतम् इति तत्र प्रथमाविभक्त्याम् उक्तम् अस्ति खलु भगिनि सूत्रे तु अनुः इति प्रथमाविभक्त्याम् उक्तम् अस्ति तत्र
नामपदेहः अस्ति
केवलम् अनु इति एव अस्ति खलु अनुर्जनम् अस्ति खलु
भव्या भगिनि तत्र मम सन्देहः अस्ति अनु इति एकवचने अस्ति वा षष्ट्याम् अस्ति वा इति
षष्ट्यां कथम्
अनुः कर्मप्रवचनीयसंज्ञा अनु इति शब्दस्य कर्मप्रवचनीयसंज्ञा
इत्यस्मिन् एकवचनम् इति अत्र अष्टाध्यायी डाट् काम् मध्ये दत्तम्
आमाम् इति दत्तं
किन्तु कर्मप्रवचनीयसंज्ञः भवति इति अस्ति खलु प्रथमा एव कर्मप्रवचनीयसंज्ञः अस्ति इति कारणात् प्रथमा एव
यदि यदि षष्ठी इति स्वीकुर्मः स्वीकरोमि तर्हि कः क्लेशः
भवति इति तादृशं भवति चेत् षष्ठी स्वीकुर्मः परन्तु अनुः कर्मप्रवचनीयसंज्ञः इति अस्ति खलु विशेषणम् अस्ति खलु
तत्र अनुष्ठाने कर्मप्रवचनीयानि इति लेखनीयं भवति
अत्र भगिनी अपि सम्यक् उक्तवती स्थानी तु नास्ति खलु महोदय षष्ठीविभक्तिः इत्युक्ते स्थानी स्थानी भवति खलु
किमर्थं षष्ठी इति वदति इति एकवारं वदतु महोदय
अनुः अनुशब्दस्य कर्मप्रवचनीयसंज्ञा भवति इति वाक्य अवगमनं मम
षष्टिरूपं नास्ति किल अनुः वा अनु कुत्रापि षष्टिरूपं न प्राप्नोति तत्
पृच्छति चेत् अहं प्रदर्शयामि अनु इति अनन्तरं क्वि प्रत्ययं योजयित्वा
अनोः इति भवति खलु
गुरोः इति भवेत्
अनोः
उपस अनु इति अव्ययम् अस्ति खलु तर्हि अनु इति केवलम् अनु तत्र विसर्गः नास्ति खलु केवलं सूत्रे पाणिनिना विसर्गयुक्तं लिखितमस्ति
किमर्थं
सत्यं
कथं किमर्थम् इत्युक्ते प्रथमायाम् अस्ति इति बोद्धुम् अत्र अनुभूति इति अस्तु अस्तु समीचीनं तर्हि अनोः इति भवेत् अनोः इति भवेत्
अपि च संज्ञासूत्रमस्ति सूत्रं संज्ञासूत्रम् इति कृत्वा तत्र षष्टिः न भवितुम् अर्हति
सत्यं सत्यम् अङ्गीकरोमि
गते सप्ताहद्वयात् पूर्वं वयं पठितवन्तः तत्र अनुपूर्वी तस्याः मुख्यत्वम् अस्ति इति उक्तवन्तः तेन अनु इति पदस्य अनन्तरमेव आगच्छति इति उक्तवन्तः खलु परन्तु पूर्वमपि भवति वा अनु अर्जुनम् अर्जुनम् अनु द्वयमपि साधु वा
अत्र वैशिष्ट्यम् अर्जुनम् अनु इति साधु नास्ति
साधु नास्ति
साधु नास्ति अर्जुनम् अनु योद्धारः इति वदामः चेत् साधु नास्ति
ओ किमर्थं साधु नास्ति भगिनि
अत्र यतोहि योद्धारः इति अपि तत्र तत्र कर्तृपदम् अस्ति वाक्ये योद्धारः इति तत्र क्रियापदं नास्ति अत्र अस्माकं अनुर्लक्षणे इति सूत्रे किमासीत् वाक्यं जपम् अनु प्रावर्षत् इति अस्ति प्रावर्षत् इति क्रियापदम् अस्ति अतः तत्र तस्य कर्म तस्य द्वितीय भवितुमेव न अर्हति अतः क्लेशः नास्ति तत्र जपम् इत्यस्य एव तत्र द्वितीयविभक्तिः भवति कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन परन्तु अत्र अर्जुनः योद्धारः इत्यत्र मध्ये अनु इति स्थापयामः चेत् तत्र क्लेशः भवितुमर्हति तस्य द्वितीया इति क्रमप्रवचने युक्ते द्वितीया इति उक्तं, तर्हि तयोः मध्ये कस्य द्वितीया? अतः एव तत्र सर्वत्र उदाहरणानि यानि यानि सन्ति सर्वत्र अनु इति प्रथमं स्थापयित्वा तत्र यस्य उत्कृष्टता अस्ति तस्य द्वितीया अनु हरिं सुराः अथवा अनु अर्जुनं योद्धारः इति तादृशं सर्वत्र अस्ति.
अनुशाकटायनं वैयाकरणाः इति तत्रापि अनुपूर्वमेव
अनु प्रथमं.
किन्तु भगिनी अनुशाकटायनं वैयाकरणाः इति अस्ति, किन्तु शाकटानं शाकटायं शाकटायनम् अनु वैयाकरणाः इति वदामश्चेत् तत्र द्वितीया प्रयुक्ता अस्ति इति कृत्वा तस्यैव उत्कर्षणम् इति अवगन्तुं शक्यते खलु?
इदानीं स्थापितवान् इति कृत्वा क्लेशः नास्ति. यदि न स्थापयति शाकटायनः शाकटायनः अनु वैयाकरणः इति तत्र कर्मप्रवचने युक्ते द्वितीया अनयोर्मध्ये कस्य द्वितीया?
यस्मिन् उत्कर्षणम् अस्ति तस्यैव द्वितीया भवति. मम विवक्षानुसारम् इत्युक्ते अर्जुनमनु योद्धारः इति वाक्यम् अस्ति चेत् तत्र अवगमने क्लेशः नास्ति, दोषाय इति नास्ति, अवगमनं कर्तुं शक्यते.
मम अवगमनमपि तथैव अस्ति, परन्तु वयम् अन्यत्र अन्वेषणं कुर्मः यत्र अनुपदम् अनन्तरम् आयाति वा इति कुत्रचित् अन्वेषणं कर्तुं शक्नुमः.
अत्र अस्ति खलु जपमनु प्रावर्षति इति, तत्र अनु जपम् इति पदस्य
न, परन्तु तत्र भगिनी किम् उक्तवती? प्रावर्षत् इति क्रियापदमस्ति, अत्र तु योद्धारः इति प्रथमाविभक्तौ अस्ति किल,
कर्ता.
तदानीं क्लेशः भवति इति भगिन्याः.
अहं चिन्तयामि तत्र लक्षणार्थे अनुर्लक्षणे इत्यनेन तत्र अनु जपम् अनन्तरं भवति, अत्र हीने इत्यर्थे अनुपूर्वं भवति इति तादृशं किमपि अनुपूर्वी अस्ति वा इति
तथा किमपि अस्ति.
तत्र अनुजपम् इति न वक्तुं शक्नुमः वा?
इत्युक्ते सरलभाषा नास्ति. पदत्रयमेव अस्ति अत्र, अनु अर्जुनं योद्धारः इति सरलभाषा संस्कृतं कथम् अस्ति? अस्तु अत्र स्थगयामः, समयः जातः. सर्वेभ्यो नमस्कारः, किन्तु समीचीनचिन्तनं जायमानमस्ति. सर्वेभ्यो नमस्कारः.